सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
नमस्कारः हा धन्यवादः भगिनि अस्तु सर्वेभ्यो नमः अस्माकं प्रवर्तमानः विषयः अस्ति चतुर्थविभक्तिरूपाणि गतवर्गे तत्र किञ्चित् लघुपरिचयः जातं तत्र पुटसङ्ख्या 147 मध्ये तत्र रूपाणि दृष्टवन्तः तत्र अर्जुनः इति अस्ति चेत् तस्य चतुर्थीविभक्तिः एकवचने भवति अर्जुनाय सीता अस्ति चेत् तस्य चतुर्थीविभक्तिरूपं भवति सीतायै द्रौपदी अस्ति चेत् तस्य चतुर्थी एकवचनरूपं भवति द्रौपद्यै इति तत्र रूपाणि तादृशानि सन्ति अपि वयं दृष्टवन्तः तत्र उदाहरणवाक्यानि अपि दृष्टवन्तः 147-148 मध्ये तत्र कीदृशक्रियापदानि सन्ति तेषु वाक्येषु 147-148 तत्र चतुर्थीविभक्तिरूपं तत्र सर्वत्र अस्ति तेषु वाक्येषु किन्तु कीदृशक्रियापदम् अस्ति तत्र करोति इति क्रियापदम् अस्ति वा अथवा पठति इति क्रियापदम् अस्ति वा धत्ति हा ददाति अस्ति
ददति यच्छन्ति किमपि ददाति
अर्पयति अर्पयति अपि अस्ति हा तादृशानि क्रियापदानि एव यत्र चतुर्थीविभक्तेः तत्र यत्र भवति इत्युक्ते यत्र किमपि दानं भवति सम्प्रदानम् इति उच्यते तत्र सम्प्रदानं किमपि दानम् अस्ति चेत् तत्र चतुर्थीविभक्तिः भवति तत्र यच्छति अर्पयति ददाति तत्रैव चतुर्थीविभक्तिरूपं भवति तत्र कारकचतुर्थी इति तत् इति अतः तत्र अपि तत्र चित्रेषु यत् उदाहरणम् अस्ति तत्र चित्रत्रयम् इति अस्ति तत्रापि ददाति 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 एव अस्ति अतः तत्र चतुर्थीविभक्तिरूपं साधारणतया धानकार्ये सम्बद्धः अस्ति इति विषयः अतः प्रथमतया वयं किं कुर्मः एकवारं तत्र चतुर्थीविभक्तिरूपाणां किञ्चित् अभ्यासं कुर्मः तत्र पेज् 148 मध्ये तत्र विभक्तिरूपाणि दत्तानि सन्ति तत्र प्रायशः तत्र अकारान्त आकारान्त ईकारान्त अपि अकारान्त नपुंसकलिङ्ग हा तदनन्तरं 149 मध्ये तत्र तु बृहत् कोष्टकमेव अस्ति तत्र सर्वाणि रूपाणि अजन्तरूपाणि दत्तानि सन्ति तत् इदानीं मास्तु एतत् प्रथमतया स्वीकुर्मः तत्र अत्रापि किञ्चित् अभ्यासं कुर्मः तत्र शोभा भगिनी तत्र देवः अस्ति चेत् देवस्य चतुर्थीविभक्तिरूपाणि कानि
देवाय देवाभ्यां देवेभ्यः
देवेभ्यः समीचीनं गीताञ्जलि भगिनी तत्र नदी अस्ति चेत्
नदी चतुर्थी इत्युक्ते नद्यै नदीभ्यां नदीभ्यः
हा नदीभ्यां नदीभ्यः समीचीनं भगिनि अस्तु शुभदा भगिनि तत्र वाणी अस्ति चेत् पेज् 148 दृष्ट्वा वदतु भगिनि तत्र कोष्टकम् अस्ति
वाणी
ईकारान्तस्त्रीलिङ्गपदम्
ईकारान्तस्त्रीलिङ्गिपदं लैक् नदी रैट्
सत्यं
सो इट् बिकम्स् नद्यै नदीभ्यां नदीभ्यः
नदीभ्यः समीचीनं भगिनि हा अस्तु भेदा भगिनी इदानीं माला अस्ति चेत् किं भवति
माला मालायै मालाभ्यां मालाभ्यः
मालाभ्यः. हा समीचीनं भगिनि. वंशीसद भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनि. रघुवीरानन्दमहोदय हा तत्र पेज् 148 मध्ये स्मः भगिनि. गीतासोपने प्रथमभगे. हा तत्र भक्तः अस्ति चेत् भक्तः पदस्य रूपाणि महोदय. रघुवीरानन्दमहोदय भक्तः न श्रूयते वा अथवा प्रायः म्यूट् मध्ये अस्ति न वा जन. हा अस्तु. मधुसूदन महोदय भक्तः इति. न न भक्तः कीदृशपदमस्ति भक्तः.
भक्ताय भक्ते भक्ताय भक्तेभ्यां भक्तेभ्यः.
हा महोदय एतत् एकवारं तत्र पेज् 148 मध्ये यत् कोष्टकम् अस्ति तद् एकवारं प्रथम श्रेणी पश्यतु महोदय. तत्र योधः इति अस्ति खलु तदेकवारं पश्यतु महोदय. तत्र योधः योधौ योधाः अपि चतुर्थीविभक्तिरूपं किम् अस्ति तत्र. अतः आय आभ्याम् एभ्यः. भक्ताय योधाय भक्ताय योधाभ्याम् इति अस्ति अतः
भक्ताभ्यां
भक्ताभ्यां. हा योधेभ्यः इति अस्ति अतः
भक्तेभ्यः
भक्तेभ्यः. अतः भक्ताय भक्ताभ्यां भक्तेभ्यः. समीचीनं महोदय. हा अस्तु. ललिता भगिनी इदानीं तत्र देवी इति देवीभ्यः. अस्तु समीचीनम्. उषा भगिनी गणेशः
गणेशाभ्यां गणेशेभ्यः.
हा गणेशाय गणेशाभ्यां गणेशेभ्यः. समीचीनं. पूर्णेन्दु महोदय सुन्दरी
सुन्दरी दीर्घैकारान्त अस्ति अतः अद्यै सुन्दर्यै सुन्दरीभ्यां
नदीभ्यः सुन्दर्यै सुन्दरीभ्यां सुन्दरीभ्यः. समीचीनं महोदय. शोभा भगिनी ललिता अस्ति चेत्.
आं महोदय. आम् ललिता ललितायै ललिताभ्यां ललिताभ्यः
ललिताभ्यः. हा समीचीनं भगिनि. अत्र तत्र कोष्टकं दृष्ट्वा तत्र बहुवचने सर्वत्र भ्यः इति भवति किन्तु कुत्रचित् एभ्यः इति अन्ते भवति. कुत्र भवति एभ्यः इति? केवलं पुटसङ्ख्या 148 मध्ये एव. हा
पुल्लिङ्गे पुल्लिङ्गे
पुल्लिङ्गे केवलं पुल्लिङ्गे वा नपुंसकलिङ्गे अपि नपुंसकलिङ्गे एव. हा अपि अतः तत्र अकारान्त इति अस्ति इति कृत्वा तद् अस्ति. अग्रे पश्यामः. तत्र गुरुः अस्ति चेत् तत्र एकारः नास्ति गुरुभ्यः एव भवति. अपि कविः अस्ति चेत् कविभ्यः इति एव भवति. एभ्यः इति केवलम् अकारान्तपदे एव भवति अत्र. किन्तु तत्र स्त्रीलिङ्गे अकारान्त नास्ति खलु. अतः आकारान्त अस्ति किन्तु अकारान्त नास्ति. अतः तत्र एभ्यः केवलं पुल्लिङ्ग अकारान्त नपुंसकलिङ्ग अकारान्त तत्र एव भवति. अस्तु तर्हि तत्र अग्रे अपि अन्यत् अभ्यासम् अन्यः अभ्यासः अग्रेपि तमपि कुर्मः, किन्तु प्रथमतया तत्र गृहपाठरूपेण यत् अभ्यासः आसीत् तद् एकवारं कृत्वा अग्रे तत्र अन्यानि रूपाणि अपि तत्र एकवारं पठित्वा अन्यत् अन्यम् अभ्यासमपि कुर्मः. अस्तु तर्हि तत्र 148 मध्ये तत्र अधोभागे अभ्यासः अस्ति, तं कुर्मः. शुभा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. अस्तु तत्र हा वंशीसुधा भगिनी आरम्भं करोति वा अभ्यासः अधोभागे?
आं महोदय, पठामि. कौरवपाण्डवानां कन्दुकक्रीडाप्रसङ्गे कः कस्मै कन्दुकं ददाति इति अत्र दर्शितमस्ति. तद्दृष्ट्वा यदोदाहरणं वाक्यानि लिखत. युधिष्ठिरः अस्तु, उदाहरणं युधिष्ठिरः दुर्योधनाय कन्दुकं ददाति. अस्तु, नकुल तत्र दुर्योधनाय
तत्र प्रायः मुद्रणदोषः अस्ति वा तत्र?
न जानामि
तत्र यत् नकुलः चित्रे दर्शितमस्ति तत्र युधिष्ठिरः नकुलाय ददाति वा अथवा किम् अस्ति?
प्रथमवाक्यं
उदाहरणं सत्यं भगिनि, उदाहरणं तु यत् भवती पठितवती तत्तु सत्यमेव. अस्तु तत्र किन्तु तत्र क्रमः भवतु खलु, तत्र कः क्रमः भवेत् इति प्रश्नः. तत्र तत्र यत् नामावली अस्ति भगिनि, तत्र युधिष्ठिरे अनन्तरं कः नाम किं नामम् अस्ति तत्र? नकुलः. अस्तु अस्तु, अतः तत् स्वीकृत्य वदामः भगिनि. हा
अस्तु, युधिष्ठिरः नकुलाय कन्दुकं ददाति.
तावदेव.
अनन्तरं वदामि
वदतु भगिनि. हा वदतु.
नकुलः सहदेवाय कन्दुकं ददाति.
नकुलः सहदेवाय कन्दुकं ददाति. अस्तु, इदानीं शुभा भगिनि अग्रे.
सहदेवः सुबाहवे कन्दुकं ददाति.
हा सुबाहवे, तत्र अत्र न पठितम्, अत्र कोष्टके नास्ति किन्तु अग्रिमे पुटे अस्ति. तत्र गुरुः शब्दः गुरवे, गुरुभ्यां गुरुभ्यः इति, अतः तत् जानीमः. समीचीनं भगिनि. अपि मुमुक्षवे इति अपि अस्ति, शुश्रूषवे अपि आसीत्, अतः तद् दृष्ट्वा सुबाहवे इति जानीमः. समीचीनं भगिनि. अस्तु अग्रे मधुसूदन महोदय.
सुबाहुः अर्जुनाय ददाति
कन्दुकं ददाति.
अर्जुनाय कन्दुकं ददाति.
कन्दुकं ददाति. समीचीनं. रघुवीरानन्दमहोदय नास्ति वा? अस्तु. हा अस्तु महोदय, इदानीं अर्जुन अपि युयुत्सुः.
अर्जुनः युत्सवे कन्दुकं ददाति.
कन्दुकं ददाति. समीचीनं महोदय. ललिता भगिनी अग्रे.
महोदय, युत्सुवे युत्सवे
युयुत्सवे. महोदय भवान् किम् उक्तवान्, युयुत्सुवे अथवा युयुत्सवे?
युत्सवे
सवे. ललिता भगिनी गुरवे. तत्र बहुवारम् एतद् वयं शृण्मः खलु, तत्र श्रीगुरुवे नमः इति बहुत्र श्रूयते, किन्तु तत्र गुरवे इति उकारः नास्ति. गुरवे एव समीचीनं. अस्तु समीचीनं भगिनि अग्रे.
युयुत्सुः
युयुत्सुः युयुत्सुः
भीमाय कन्दुकं ददाति.
हा समीचीनं भगिनि. लक्ष्मी भगिनी अग्रे.
भीमः दुर्योधनाय कन्दुकं ददाति.
हा समीचीनं भगिनि. उषा भगिनि.
दुर्योधनः
तत्र कीर्तिः सोमकीर्तिः इति अस्ति भगिनि, तत्र कविः शब्दवत् अग्रिमे पुटे अस्ति.
अस्तु महोदय. सोमकीर्त्यै
न कीर्तिः स्त्रीलिङ्ग कीर्तिः स्त्रीलिङ्गपदं प्रायशः स्यात् किन्तु सोमकीर्तिः पुल्लिङ्ग पुल्लिङ्गपदमस्ति न सत्यं किन्तु अत्र तत्र सोमकीर्तिः इति तत्र समासः कृत्वा तत्र लिङ्गपरिवर्तनं तत् सर्वं भवति अतः अत्र पुल्लिङ्गपदम् सत्यं भगिनि हरिः कविः वत् अग्रिमे पुटे अस्ति अस्ति तत्र हरिशब्द हरि हरिपदस्य चतुर्थी विभक्तिरूपं किम् अस्ति हरये हरये अतः सोम दुर्योधनः
सोमकीर्तये कन्दुकं ददाति
समीचीनं भगिनि अस्तु पूर्णेन्दु महोदय
कन्दुकं ददाति
समीचीनं अग्रे शोभा भगिनि
दुश्चला विवित्सवे कन्दुकं ददाति
तावदेव प्रायशः अन्यदपि तत्र कर्तुं शक्नुमः गीताञ्जलि भगिनि चिन्तनं कुर्मः विवित्सुः पुनः युधिष्ठिरं तत्र कन्दुकं विवित्सुः अस्ति तस्मात् पुनः युधिष्ठिर तत्र आगच्छति इति अतः तत् किं
विवित्सुः युधिष्ठिराय कन्दुकं ददाति
धावति तदनन्तरम् अत्र कन्दुकेन कन्दुकक्रीडा पर्याप्तम् अस्माभिः ते क्रीडन्ति वयम् अग्रे गच्छामः अग्रे तेषां युद्धं सर्वम् अस्ति किन्तु
अस्माकं कृते पर्याप्तं किन्तु ते तु
तदनन्तरं प्रायशः युद्धमपि भवति अतः पूर्णेन्दु महोदय वदतु महोदय
भवान् यत् प्रेषितवान् यत् स्तोत्रं किञ्चित् चर्चां कुर्मः अतः
सत्यं महोदय सत्यं तदपि कुर्मः महोदय अतः तत्र एकवारं केचन रूपाणि पश्यामः इति तत्र ईकारान्त उकारान्त सर्वं परिशील्य एकवारं तत् पश्यामः महोदय समीचीनमेव समीचीनं महोदय अद्य पश्यामः तत् अस्तु अग्रे शुभदा भगिनि तत्र अग्रे वाक्यं वाक्यानि दत्तानि सन्ति तत्र प्रथमवाक्यं पठति वा
एतानि वाक्यानि उच्चैः पठत दाता यतये भिक्षां ददाति
तत्र यतये इति अस्ति तत्र पदपरिचयं करोतु भगिनि तत्र यतये इति
यतिः इति इकारान्त पुल्लिङ्गपदं पुल्लिङ्गपदं यतये चतुर्थीरूपं
चतुर्थीरूपम् अतः तत्र अधोभागे दृष्ट्वा तत्र द्विवचने किं भवति बहुवचने किं भवति
आं महोदय यतये यतिभ्यां यतिभ्यः
इदानीं तत्र तदेव उपयुज्य तत्र वाक्यद्वयं तत्र वदतु भगिनि तत्र दाता यतये भिक्षां ददाति इदानीं द्विवचने
दाता यतिभ्यां भिक्षां ददाति दाता यतिभ्यः भिक्षां ददाति
समीचीनं भगिनि समीचीनं इदानीं शुभदा भगिनि
महोदय कृष्णः साधवे अभयं ददाति
इदानीं साधवे इति कीदृशपदं
साधुः
पुल्लिङ्गपदं साधुपदं इदानीं तत्रापि तत्र रूपं किं भवति भगिनि तत्र द्विवचने चतुर्थी विभक्ति
साधवे साधुभ्यां साधुभ्यां साधुभ्यः
साधवे
साधुभ्यां साधुभ्यः
साधुभ्यः इदानीं तद् उपयुज्य तत्र वाक्यं परिवर्त्य वदतु भगिनि
कृष्णः साधवे अभयं ददाति, कृष्णः साधुभ्याम् अभयं ददाति, कृष्णः साधुभ्यः अभयं ददाति.
हा समीचीनं भगिनि, हा समीचीनम्. इदानीं वेदा भगिनि अग्रे.
प्रजापतिः कर्त्रे कर्मफलं ददाति, कर्तृशब्दं.
हा तत्र कर्तृ इति कीदृशपदं?
कर्तृ पुल्लिङ्गशब्दं, कर्तृ.
हा ऋकारान्त पुल्लिङ्गशब्दः. हा समीचीनं भगिनि. तत्र तत्र प्रायशः एतत् तत्रैव अस्ति वा अथवा प्रायशः अग्रिमे पुटे अस्ति भगिनि? तत्र भ्राता इति रूपं कर्ता अपि दत्तमस्ति. हा तद् उपयुज्य तत्र वाक्यं वदतु भगिनि.
प्रजापतिः कर्तृभ्यां कर्मफलं ददाति, प्रजापतिः कर्तृभ्यां कर्तृभ्यः कर्तृभ्यः कर्मफलं ददाति.
हा समीचीनं भगिनि. हा वंशीसुधा भगिनि अग्रे.
आं महोदय,
एकः प्रश्नः अस्ति महोदय. इदं कर्मफलं चेञ्जेस् इन् टु कर्मफलानि,
तदपि वक्तुं शक्नुमः भगिनि. तत्र कर्मफलानि ददाति इति तदपि वक्तुं शक्नुमः भगिनि. समीचीनमेव. हा समीचीनमेव. तत्र यदि कर्तृभ्याम् इति अथवा कर्तृभ्यः कर्मफलं ददाति अथवा कर्मफलानि ददाति, प्रायशः समानार्थकवाक्यं भवति इति मन्ये भगिनि. किन्तु सत्यं तत्र कर्मफलानि अपि वक्तुं शक्नुमः.
धन्यवादः.
यदि द्विवचने अस्ति चेत् तत्र कर्मफले ददाति, अपि कर्तृभ्यः अस्ति चेत् तत्र कर्मफलं वा कर्मफलानि, अतः विकल्पद्वयम् अस्ति.
चतुर्थवाक्यमेव न महोदय.
श्रीकृष्णः.
अस्तु, श्रीकृष्णः द्रौपद्यै अभयं ददाति.
तत्र वदतु भगिनि.
द्रौपदी इति दीर्घ ईकारः शब्दः भवति वा महोदय? द्रौपदी भवति,
द्रौपदी, द्रौपद्यै. तत्र पेज् 147 मध्ये अस्ति खलु भगिनि, तत्र चित्रे एव अस्ति खलु, भीमः द्रौपद्यै सौगन्धिकपुष्पम्.
अस्तु अस्तु, किञ्चित् विलम्बेन आगतवती महोदय.
चिन्ता मास्तु भगिनि. द्रौपदी इति ईकारान्त स्त्रीलिङ्गपदम्.
आं महोदय, द्रौपद्यै द्रौपदीभ्यां द्रौपदीभ्यः.
समीचीनं भगिनि. नदीवत्.
नदीवत्.
अत्र परिवर्तनं न कर्तुं शक्नुमः, द्रौपदी एका एव अस्ति, अतः मास्तु परिवर्तनं मास्तु भगिनि. अस्तु अग्रे मधुसूदन महोदय अग्रे.
महोदय, गौरी वैद्याय धन्यवादं समर्पयति.
तत्र कीदृशपदम् अस्ति वैद्याय? तत्र पदपरिचयं करोतु महोदय. तत्र
वैद्यः अकारान्तपुल्लिङ्गशब्दः,
अकारान्तपुल्लिङ्गवैद्यशब्दः. समीचीनं महोदय. इदानीं वैद्याय इति एकवचने चतुर्थी विभक्ति, द्विवचने
वैद्याय वैद्याभ्यां वैद्येभ्यः
वैद्येभ्यः.
अत्र श्रीकृष्णः,
न न श्रीकृष्णः न, इदानीं रोगी, रोगी
रोगी वैद्याय धन्यवादं समर्पयति, रोगी वैद्याभ्यां धन्यवादं समर्पयति, रोगी वैद्येभ्यः धन्यवादं समर्पयति.
समीचीनं महोदय. तत्र वैद्याय वैद्याभ्यां वैद्येभ्यः, तत्रैव एकारः आगच्छति. समीचीनं. रघुवीरानन्दमहोदय अग्रे.
महोदय, चतुर्थी विभक्ति एभ्यः महोदय.
अकारान्त अस्ति चेत् एभ्यः इति महोदय.
अकारान्त पुल्लिङ्ग,
पुल्लिङ्ग नपुंसकलिङ्ग वा?
आम्. नायकः चम्पै
हा
उत्साहं ददाति
हा तत्र अग्रिमे पुटे चमूः इति कोऽपि स्मरति वा चमूः ऊकारान्तपदम् अस्ति किन्तु स्त्रीलिङ्गे वा पुल्लिङ्गे वा इति कोऽपि स्मरति वा स्त्रीलिङ्गे एव स्त्रीलिङ्गे एव अहं कथं जानामि इति वदामि अहं पेज् 13 पश्यामि तत्र एतत् सर्वं दत्तमस्ति हा पेज् 13 गीतासोपाने बहु मुख्यपुटमस्ति हा यदि कुत्रापि क्लेशः अस्ति लिङ्गविषये पेज् 13 पश्यतु चमु धेनु वधु सर्वं तत्र हा यद् अत्र दत्तमस्ति तत् तत् तस्य लिङ्गं तत्र दत्तमस्ति हा चमु इति स्त्रीलिङ्गे अस्ति समीचीनम् अतः भानुचित्री महोदय अतः
महोदय
रूपं किं भवति
नायकः चमूभ्याम् उत्साहं ददाति नायकः चमूभ्यः उत्साहं ददाति
हा तत्र केवलं तत्र गुरु तत्र किं तत्र प्रायशः गुरुभ्यां गुरुभ्यः इति तादृश अस्ति किन्तु दीर्घ उकारः अस्ति किन्तु एकवचने गुरवे अस्ति किन्तु अत्र चम्भै इति अस्ति अतः तत्र वदतु भगिनि
श्रूयते वा महोदय
श्रूयते भगिनि वदतु भगिनि
महोदय अहं चिन्तयामि दीर्घ उकारः शब्दः पुल्लिङ्गे नास्ति वा गुरुशब्दः एव उकारः शब्दः एव अस्ति उकारः नास्ति
प्रायशः साधारणतया नास्ति भगिनि न जानामि तत्र शब्दमञ्जरि दृष्ट्वा वक्तव्यं कोऽपि वदतु न स्मरामि भगिनि प्रायशः नास्ति
धेनुः वधूः तत्सर्वे स्त्रीलिङ्गरूपाणि एव भवन्ति
हा प्रायः सत्यं भगिनि सत्यं सत्यं हा प्रायशः क्लेशः कुत्र भवति चेत् तत्र ह्रस्व उकारः ह्रस्व इकारः मध्ये हा सत्यं भगिनि तत् सत्यमेव हा समीचीनम् अतः तत्र स्वरः दीर्घः अस्ति चेत् प्रायशः तत् स्त्रीलिङ्गे एव अस्ति इति भवत्याः चिन्तनम् इति खलु अस्तु समीचीनं भगिनि अतः प्रायः तत् सत्यम् तत् सत्यमेव साधारणनियम इति चिन्तनं कर्तुं शक्नुमः इति मन्ये हा अस्तु अग्रे ललिता भगिनि पुत्रः
पुत्रः मात्रे फलं ददाति
हा तत्र केवलं रूपाणि वदतु भगिनि हा
हा मात्रे मातृभ्यां मातृभिः
तत्र मात्रे मातृभ्यां मातृभ्यः
मातृभ्यः मातृभ्यः सोरि
मातृभिः
तृतीया
हा हा मातृभ्यः समीचीनं भगिनि हा अस्तु लक्ष्मी भगिनी अग्रे
नेता प्रतिनिधये उपायनं ददाति
इत्युक्ते गिफ्ट्
प्रतिनिधिः पुल्लिङ्गपदं इकारान्तपुल्लिङ्गपदं प्रतिनिधिः अतः प्रतिनिधये
रूपं किं भवति प्रतिनिधये
प्रतिनिधिभ्यां प्रतिनिधिभ्यः
प्रतिनिधिभ्यां प्रतिनिधिभ्यः इदानीं वाक्यं
प्रतिनिधिभ्याम् उपायनं ददाति नेता प्रतिनिधिभ्यः उपायनं ददाति
हा समीचीनं भगिनि तावदेव
महोदय एकः संशयः यतिः अर्थः किं
यतिः तत्र भानुचेतनी महोदय यतिः रघुवीरन्दुमहोदय यतिः
यतिः महोदय तपस् कृत्वा भागवतः दर्शनं इच्छति सः यति प्रयत्नं करोति यत्नेन
यत्ने यतति जानामि महोदय किन्तु यदि भवान् वदति चेत् सम्यक् भवति इति कृत्वा अहम् उक्तवान् भवान् वदतु इति
अन्यकसंशय दाता इत्युक्ते ब्रह्मा इति अर्थः वा दाता
कुत्र
दाता
दाता न न दाता इति यः ददाति सः दाता तावदेव दातृ इति शब्दः
अस्तु
दातृ इति ऋकारान्तशब्दः दाता यः ददाति सः दाता प्रातिपदिकं धातृ इति अस्ति अस्तु अग्रे उषा भगिनि
यतिः अर्थं किं नास्ति महोदय
यतिः अर्थः वा अस्तु रघुवीरनन्दमहोदय पुनः एकवारं वदतु महोदय
क्षम्यतां
यतते भगवतः दर्शनार्थं यः यतते सः यतिः
प्रयत्नं करोति अग्रे उषा भगिनि
गुरुः वटवे आशिषं ददाति वटवे गुरुशब्दवत् गुरवे गुरुभ्यां गुरु वटवे वटुभ्यां वटुभिः
वटु बहुवचने किं बहुवचने
गुरवे गुरुभ्यां गुरुभ्यः
वटवे
गुरुः वटवे आशिषं ददाति गुरुः वटुभ्याम् आशिषं ददाति गुरुः वटुभ्यः आशिषं ददाति
हा समीचीनं भगिनि समीचीनं हा पूर्णेन्दु महोदय अग्रे
अहं मूर्तये पुष्पम् अर्पयति मूर्तये मूर्ति इकारान्तपदे अस्ति इकारान्त इत्युक्ते मुनेः मुनिभ्यां मुनिभिः चतुर्थी विभक्ति महोदय मुनाय मुनिभ्यां मुनिभिः मूर्तये भक्तः भक्तः मूर्तये पुष्पम् अर्पयति भक्तः मूर्तिभ्यां पुष्पम् अर्पयति भक्तः मूर्तिभिः
मूर्तिभ्यः मूर्तिः मूर्तिः कवये कविभ्यां कविभ्यः हरये हरये हरिभ्यां हरिभ्यः
मूर्तिभ्यः पुष्पम् अर्पयति पुष्पम् अपि बहुवचने कर्तुं शक्यते
कर्तुं शक्नुमः सत्यं पुष्पाणि अर्पयति तत्र भक्तः मूर्ते पुष्पाणि अर्पयति तत्र एव आरभ्य सत्यं महोदय अत्र किम् अस्ति तत्र अपि तत्र यतः एतत् चतुर्थीविभक्तौ अस्ति तत्र वयं स्वातन्त्र्येण केवलं किं तत्र तस्य वचनपरिवर्तनं कर्तुं शक्नुमः कर्तृपदस्य वा अथवा क्रियापदस्य परिवर्तनम् आवश्यकमिति नास्ति खलु तत्र यस्मै दद्मः तत्र तस्य वचनं किमपि भवेत् चिन्ता नास्ति इति वार्ता अत्र अस्तु अग्रे शोभा भगिनि
आपणिकः उपभोक्त्रे वस्तु ददाति तत्र उपभोक्ता इति भ्राता शब्दवत् अतः आपणिकः
ऋकारान्तपदम्
ऋकारान्त भ्रातृ भ्रातृ किन्तु प्रथमविभक्तौ क्षमताम् एकवचने चतुर्थविभक्त्यां भ्राता इति अतः उपभोक्ता उपभोक्ता
अग्रिमेपुटे अस्ति भगिनि
अग्रिमेपुटे उपभोक्तृभ्याम् उपभोक्तृभ्यः
उपभोक्त्रे उपभोक्तृभ्याम् उपभोक्तृभ्यः समीचीनं भगिनि इदानीं तत्र वाक्यम् आपणिकः
आपणिकः उपभोक्तृभ्यां वस्तु ददाति आपणिकः उपभोक्तृभ्यः वस्तु ददाति
अपि तत्र वस्तु इति स्थाने बहुवचनरूपम् अस्ति चेत् तत्र वस्तूनि ददाति इति. तावदेव समीचीनं भगिनि. अस्तु
महोदय, विवित्तुः इति कथं भवति महोदय?
किं भगिनि?
तत्र विवित्सुः नाममेव, तत्र
नाम एव भगिनि, नाम एव. प्रायशः तत्रापि प्रायशः किमपि कोऽपि अर्थः अस्ति भगिनि, किन्तु न जानामि तत्र विवित्सुः. यथा गतवर्गे वयं चर्चितवन्तः इति भवत्याः प्रश्नः वा? तत्र शुश्रूषुः मुमुक्षुः इति. हा हा सत्यं भगिनि, तादृश एव दृश्यते, किन्तु अर्थः न जानामि भगिनि, अर्थः न जानामि, अर्थं न जानामि.
अस्तु महोदय.
अस्तु गीताञ्जलि भगिनि अग्रे.
ध्वनिः अस्ति महोदय, किन्तु अहं प्रयत्नं करोमि. कृषकः धेनवे तृणं ददाति. धेनवे इति तु धेनुः इति स्त्रीलिङ्गपदम् अस्ति महोदय. चतुर्थ
धेनुः इति सत्यं भगिनि, उकारन्त ह्रस्व उकारन्त स्त्रीलिङ्गपदम् अस्ति धेनुः. धेनुः धेनवः अपि अग्रिमे पुटे रूपाणि रूपं दत्तमस्ति भगिनि, अग्रिमे पुटे.
सो कृषकः धेनवे धेनुभ्यां धेनुभ्यः. कृषकः धेनुभ्यां तृणं ददाति. कृषकः धेनुभ्यः तृणं ददाति.
तत्र धेनवे इति स्थाने तत्र अन्यदपि वक्तुं शक्नुमः, तत् किम् अस्ति?
गौ इति
भगिनि, अन्यत् रूपं, चतुर्थीविभक्तेः अन्यत् रूपं. यथा पूर्वं तत्र छं वै इति दृष्टवन्तः खलु भगिनि, तत्र तादृशरूपम् अत्र धेनुपदस्य. तत्र चम्बै इति रूपमपि अस्ति, गुराबे इति रूपमपि अस्ति, अत्र धेनुवै अपि अस्ति. तत्र मति शब्दस्य तत्र रूपद्वयं भवति खलु, अतः तादृश अत्र अतः तत्र धेनवे इति. अस्तु
महोदय, तत्र चमु इत्यस्य चम्बै इति एव अस्ति खलु?
सत्यं भगिनि, किन्तु यत्र तत्र धेनुः इति ह्रस्व उकारपदम् अस्ति खलु भगिनि?
धेनुः अस्ति चेत् धेन्वै धेनवे.
सत्यम्, अतः अहं केवलम् उक्तवान् तत्र मतीशब्दस्य रूपाणि यदि पश्यामः तत्र किं भवति, तत्र एकं रूपं भवति हरिशब्दवत्, अपि एकं रूपं भवति नदीशब्दवत्. तादृश अत्र किम् अस्ति, तत्र धेनुः इति स्त्रीलिङ्गे अस्ति, किन्तु ह्रस्व उकारः अस्ति, अतः तत्र ह्रस्वकारवत् गुरुशब्दः अस्ति, अतः गुरुशब्दस्य रूपम् एकम् अस्ति. तदनन्तरं दीर्घ ऊकार स्त्रीलिङ्गपदं यत् अस्ति तस्य रूपमपि अस्ति इति. तावदेव, समीचीनं खलु? अस्तु अग्रे शुभदा भगिनि.
श्वश्रुः श्वश्रुः वध्वै कङ्कणानि ददाति. इदं वधू दीर्घ उकारान्त स्त्रीलिङ्गी शब्दः. सो वध्वै वधूभ्यां वधूभ्यः इति रूपाणि.
चमू शब्दवत् एव अस्ति. समीचीनं भगिनि, चमू शब्दवत् एव तत्र चम्बै चमूभ्यां चमूभ्यः, वध्वै वधूभ्यां वधूभ्यः. इदानीं वाक्यं
श्वश्रूः वध्वै कङ्कणानि ददाति. श्वश्रूः वधूभ्यां कङ्कणानि ददाति. श्वश्रूः वधूभ्यः कङ्कणानि ददाति.
हा तावदेव समीचीनं भगिनि. अस्तु वेदा भगिनी अग्रे.
आं महोदय, देवः भक्ताय वरं ददाति. भक्तः पुल्लिङ्गशब्दं, भक्ताय भक्ताय भक्ताभ्यां भक्तेभ्यः.
हा भक्तेभ्यः, समीचीनं भगिनि. हा इदानीं रूपं,
देवः भक्ताय वरं ददाति, देवाय भक्ताभ्यां वरं ददाति, देवः भक्तेभ्यः वरं ददाति.
हा इति समीचीनम् अस्तु. अतः तत्र अभ्याससमये एव तत्र किञ्चित् अग्रिमकोष्ठ अग्रिमस्तः कोष्टकस्य परिचयः अपि जातः. तत्र अग्रे तद् दृष्ट्वा बहु किमपि कार्यमस्ति तत्र, किन्तु तस्य पूर्वं किञ्चित् लघु अभ्यासः अपि कुर्मः एतदेव उपयुज्य. तत्र तत्र किं कुर्मः, हा एतत् कुर्मः. तत्र इदानीं वंशीसुधा भगिनी, हा वंशीसुधा भगिनी, इदानीं तत्र कविः अस्ति, उत्तमः अस्ति, उत्तमः कविः इति तस्य रूपाणि वदतु भगिनि.
उत्तमः कविः वा महोदय?
हा उत्तमः कविः.
उत्तमः कविः उत्तमौ ओ चतुर्थी विभक्ति.
अस्तु, प्रथमतया तत्र प्रथमविभक्ति अपि समीचीनं पूर्वं, किन्तु चतुर्थी विभक्ति अपि.
उत्तम कवये कवये उत्तम कवये
उत्तमाय कवये.
ओ अस्तु महोदय, क्षम्यताम्. उत्तमाय कवये उत्तमाभ्यां कविभ्यां उत्तमाभ्यां कविभ्याम् अपि च उत्तमेभ्यः कविभ्यः कवि.
समीचीनं भगिनि, हा उत्तमेभ्यः कविभ्यः, समीचीनं. हा शुभा भगिनी, इदानीं तत्र उत्तमः गुरुः
महोदय.
हा
कुत्र महोदय, कुत्र
कुत्रापि नास्ति, कुत्रापि नास्ति, केवलम् अभ्यासार्थं तत् कोष्टकं दृष्ट्वा. अपि तत्र कोष्टकद्वयमस्ति खलु, पेज् 148 अस्ति, पेज् 149 अस्ति. इदानीं तत्र अभ्यासकोष्टकद्वयं तत्र तयोः मिश्रणं कृत्वा अभ्यासः तावदेव. पूर्णेन्दुमहोदय, प्रश्नः?
मम अपि तत् प्रश्नं आसीत्.
अस्तु अस्तु अस्तु, केवलं तत्र रूपम् अस्माकं मनसि भवेत् इति तावदेव. अस्तु, इदानीं शुभा भगिनी, उत्तमः गुरुः
उत्तमाय गुरवे.
उत्तमाय गुरवे द्विवचने.
उत्तमाभ्यां गुरुभ्यां
बहुवचने.
उत्तमेभ्यः गुरुभ्यः.
उत्तमेभ्यः गुरुभ्यः, समीचीनं. नरेश् महोदय, नमस्कारः.
नमस्कारः महोदय, क्षम्यता,
अहं न दृष्टवान् महोदय. भवान् इदानीमेव आगत वा अथवा पूर्वम् अपि आसीत् वा? क्षम्यताम्, अहं न दृष्टवान् तत्र. इदानीमेव, अस्तु महोदय. पेज् 148 149 मध्ये स्मः इदानीं. मधुसूदन् महोदय, तत्र इदानीं तत्र उत्तमः, हा तत्र हा तत्र उत्तमः, तत्र किं कुर्मः, उत्तमः बन्धुः.
उत्तमः बन्धुः, उत्तमाय बन्धुः बन्धवे. उत्तमः बन्धवे उत्तमाभ्यां बन्धवेभ्यः.
उत्तमाभ्यां बन्धुभ्यां
बन्धुभ्याम् उत्तमेभ्यः बन्धुभ्यः.
उत्तमेभ्यः बन्धुभ्यः बन्धुभ्यः, समीचीनं महोदय. हा रघुवीरानन्द महोदय, इदानीं तत्र किं कुर्मः, हा तत्र सः इति पदम् उपयुज्य, सः गुरुः
महोदय,
इदानीं तस्य तत्र चतुर्थी विभक्तिरूपं महोदय.
सः
तत्र तस्मै तत्र एकनिमिष तस्मै गुरवे नमः
गुरुभ्यां नमः
तत्र न न न तस्माभ्यां नास्ति महोदय ताभ्याम् इति न न एतत् एतावत् न पठितवन्तः महोदय तत्र तत्र सः तौ ते तं ते तान् तं तौ तान् तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः इति अतः तस्मै ताभ्यां तेभ्यः
तस्मै ताभ्यां तेभ्यः तस्मै गुरवे नमः ताभ्यां गुरुभ्यां नमः तेभ्यः गुरुभ्यः नमः
हा तेभ्यः गुरुभ्यः नमः समीचीनं ललिता भगिनी इदानीं तत्र सा नदी तत्र सा इति रूपं चतुर्थीविभक्तिरूपम् अस्ति जानाति वा भगिनी ललिता भगिनी
तस्यै
जानामि हा जानामि तस्यै ताभ्यां ताभ्यः अतः सा नदी
तस्मै
तस्यै
तस्यै
नद्यै तत्र एकवारं भगिनि एतत् कुर्मः तत्र नदी शब्दस्य चतुर्थीविभक्तिरूपम् एकवारं वदतु नद्यै
नद्यै नदीभ्यां नदीभ्यः
अपि तत्र तस्यै ताभ्यां ताभ्यः इदानीं योजयित्वा
तस्यै नदीभ्यां
न न तस्यै नद्यै
गच्छति
न न तस्यै नद्यै तावदेव अग्रे अग्रे क्रियापदमपि आगच्छति इदानीं मास्तु इदानीं केवलं तत्र तस्यै नद्यै तस्यै नद्यै ताभ्यां
नदीभ्यां नदीभ्यां
ताभ्यः नदीभ्यः इति सा समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनि तत्र सा महिला महिला इति महिला इति पदस्य रूपाणि वदतु भगिनि महिलायै आकारान्ते स्त्रीलिङ्गपदं महिलायै
महिलाभ्यः
इदानीं तस्यै ताभ्यां ताभ्यः इति आयोजनीयं
महिलायै ताभ्यां
महिलाभ्यां
महिलाभ्यां ताभ्यः महिलाभ्यः
हा समीचीनं भगिनि हा समीचीनं तावदेव अस्तु इदानीं उषा भगिनी उत्तमा महिला
उत्तमा महिला महिलायै महिलाभ्यां महिलाभ्यः उत्तमा रमा शब्दवत्
महिलापि तादृशपदमेव अस्ति
उत्तमायै उत्तमाभ्याम् उत्तमाभ्यः उत्तमायै महिलायै उत्तमाभ्यां महिलाभ्याम् उत्तमाभ्यः महिलाभ्यः
समीचीनं भगिनि अस्तु पूर्णेन्दु महोदय इदानीं तत्र उत्तमः भवान् एतत् कृतवान् वा न वा न जानामि प्रायशः न कृतवान् खलु अस्तु तत्र उत्तमः कविः
मूर्तिभ्यः उत्तमः उत्तमः अकारान्त बालकाय उत्तमाय उत्तमाय मूर्तये बालकाय बालकाभ्याम् उत्तमाभ्यां मूर्तिभ्याम् अनन्तरं
कविभ्यां मूर्तिभ्यां न कविभ्यां उत्तमाभ्यां कविभ्यां
कवेभ्याम् उत्तमेभ्यः कवेभ्यः
कविभ्यः 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 समीचीनं महोदय
उत्तमेभ्यः कविभ्यः
उत्तमाय कवये उत्तमाभ्यां कविभ्याम् उत्तमेभ्यः कविभ्यः
कविभ्यः
कविभ्यः समीचीनम् अस्तु शोभा भगिनी इदानीं तत्र उत्तमा देवी
उत्तमा देवी नदी शब्दवत् महोदय देव्यै देवीभ्यां देवीभ्यः उत्तम्यै देव्यै
उत्तम तत्र उत्तम उत्तम इति तु आकारान्तः अस्ति उत्तमा अपि देवी
तत्र उत्तमायै देव्यै उत्तमाभ्यां देवीभ्याम् उत्तमाभ्यः देवीभ्यः
उत्तमाभ्यः देवीभ्यः समीचीनं भगिनि अस्तु गीताञ्जलि भगिनि इदानीं तत्र किं सा देवी
सा इत्युक्ते
तत्र सा इति पदस्य तस्यै ताभ्यां ताभ्यः
आं
महोदय तस्यै ताभ्यां ताभ्यः ताभ्यः
अस्तु तस्यै देव्यै देवी न महोदय
सत्यं भगिनि
तस्यै देव्यै ताभ्यां देवीभ्यां ताभ्यां
ताभ्यः ताभ्यः
क्षम्यतां ताभ्यः देवीभ्यः
देवीभ्यः देवीभ्यः एतादृश अभ्यासः किमर्थम् इत्युक्ते तत्र विशेषणविशेषभावः अस्ति यत्र विशेषस्य विभक्तिरूपं कुर्मः विशेषणस्य अपि करणीयम् अस्ति खलु अतः तत्र द्वयोः सङ्गच्छति इति कृत्वा द्वयं तत् अतः तत्र एकस्य परिवर्तनं अस्तु अग्रे समीचीनं भगिनि गीताञ्जलि भगिनि अस्तु शुभदा भगिनि अग्रे तत्र उत्तम इदानीं तत्र किञ्चित् क्लिष्टः किन्तु एतत् भवती कृतवती अतः तत्र उत्तमा वधू इति
उत्तमा वधू
उत्तमा वधू
उत्तमायै वध्वै उत्तमाभ्यां वधूभ्याम् उत्तमाभ्यः वधूभ्यः
समीचीनं भगिनि अस्तु अग्रे वेदा भगिनि तत्र बन्धुः तत्र न ऋकारान्तपदमपि न कृतं खलु अतः तत्र उत्तमः भ्राता
उत्तमः
भ्रात्रे भ्रातृभ्यां भ्रातृभ्यः
भ्रातृभ्यां भ्रातृभ्यः लैक् कर्त्रे कर्तृभ्यां भ्रात्रे भ्रातृभ्यां भ्रातृभ्यः उत्तमः
उत्तमः उत्तमः भ्राता
उत्तमाय भ्रात्रे उत्तमाय भ्रात्रे उत्तमाभ्यां भ्रातृभ्याम् उत्तमेभ्यः भ्रातृभ्यः
इति समीचीनं भगिनि अस्तु वंशी सुधा भगिनी भवती कृतवती खलु एतत् वा उत्तमेभ्यः उत्तमेभ्यः भवती किम् उक्तवती अन्तिमं बहुवचने
उत्तमेभ्यः
अस्तु अस्तु समीचीनं भगिनि अस्तु उत्तमेभ्यः भ्रातृभ्यः अस्तु समीचीनं भगिनि वंशीसुधा भगिनी भवती एव आरम्भं कृतवती खलु अत्र अस्तु तत्र शुभा भगिनी अपि कृतवती खलु शुभा भगिनी भवती एतादृशम् अस्तु नरेश् महोदयेन कृतवान् इति मन्ये नरेश् महोदय तत्र उत्तमा नारी इति
उत्तमा नारी उत्तमायै नार्यै उत्तमाभ्यां नारीभ्याम् उत्तमाभ्यः नारीभ्यः
नारीभ्यः इति समीचीनं हा अस्तु तत्र प्रायशः क्रियापदस्य आयोजनमपि कर्तुं शक्नुमः किन्तु अद्य मास्तु अग्रे गच्छामः अस्तु तर्हि तत्र केवलं तत्र रूपस्य स्थापनार्थम् एतादृश अभ्यासः भवतु इति अस्तु अतः इदानीम् तत्र प्रायशः अग्रिम अभ्यासः सुलभः भवति कठिन अभ्यासः अभवत् खलु इदानीम् सुलभः अभ्यासः भवति अस्तु अग्रे तत्र वंशीसुधा भगिनी आरम्भं करोति वा अग्रिम अभ्यासः
आम् महोदय
आम्
महोदय एकः अन्यविषयः अस्ति सरलरीत्या यदि स्मरणे तिष्ठति तिष्ठन्ति इच्छामि चेत् तत्र अकारान्तपदम् एव एभ्यः भवति बहुवचने महोदय कुत्रापि सर्वत्र इभ्यः उभ्यः तत्रैव भवति सरलरीत्या यदि स्मरणे तिष्ठामि अस्तु
सत्यं भगिनि सत्यम् अतः तत्र समीचीनमेव अतः तत्र वार्ताक द्विवचने कोऽपि क्लेशः न भवेत् खलु सर्वत्र भ्याम् एव अस्ति गुरुः गुरुभ्यां कुरुः कुरुभ्यां बन्धुः बन्धुभ्यां चिकीर्षुः चिकीर्षुभ्यां कर्तृ कर्तृभ्यां महति महतीभ्यां तनु तनुभ्यां चमु चमुभ्याम् इति तत्र किं मा भ्राता इति अस्ति भ्रातृभ्यां किमर्थम् अत्र अस्ति भ्रातृ इति प्रातिपदिकम् अस्ति खलु अतः तत्र द्विवचने कोऽपि क्लेशः न भवेत् नास्ति बहुवचने यथा भवती उक्तवती तत्र केवलं सावधानं कुत्र आवश्यकं तत्र अकारान्त बहुवचने तत्र अपि अकारान्त नपुंसकलिङ्गे वा पुल्लिङ्गे वा तत्र तत्र सावधानम् आवश्यकम् अपि एकवचने तत्र किञ्चित् सावधानम् आवश्यकम् सत्यं तत्र किन्तु तत्र तत्रापि किं वक्तुं शक्नुमः तत्र ईकारान्तपदम् अस्ति चेत् तत्र किं भवति यकारः आगच्छति अपि उकारान्तपदम् अस्ति चेत् वकारः आगच्छति अतः
गुणसन्धि मनसि इकारः यकारः भवति उकारः वकारः भवति तत्र
इति सत्यं भगिनि हा तत् मनसि स्थापयामश्चेत् सुलभः भवति तत्र यदि सम्यक्तया न जानीमः किन्तु बहु समीपं गन्तुं शक्नुमः रूपस्य समीपं सत्यं भगिनि हा धन्यवादः अस्तु अग्रे
यदोदाहरणं चतुर्थी विभक्तिरूपैः रिक्तस्थानानि पूरयत सारथिः सारथये सारथिभ्यां सारथिभ्यः सेनापतिः सेनापतये सेनापतिभ्यां सेनापतिभ्यः
हा समीचीनं भगिनि तत्र अस्तु तत्र एतदपि वटुः अपि करोतु तत्र
आम् वटुः मम पुस्तके
अत्र अधोभागे अस्ति भगिनि पदस्य अधोभागे अस्ति
गुरुः गुरवे गुरुभ्यां गुरुभ्यः वटुः वटवे वटुभ्यां वटुभ्यः
हा समीचीनं भगिनि धन्यवादः शुभभगिनी तत्र अग्रे तत्र ऋषिः अपि शत्रुः करोतु भगिनि
ऋषये ऋषिभ्यां ऋषिभ्यः शत्रवे शत्रुभ्यां शत्रुभ्यः
हा समीचीनं भगिनि हा समीचीनं नरेश महोदय इदानीं तत्र विभुः अपि विधाता इति ऋकारान्तपदम् अस्ति इति कृत्वा समीचीनं महोदय अस्तु मधुसूदन महोदय अग्रे तत्र कर्ता इति तदपि ऋकारान्तपदम् अस्ति तदनन्तरं विभूतिः इति करोतु महोदय
कर्तृभ्यः
कर्तृभ्यः समीचीनं इदानीं विभूतिः भूमिशब्दवत् अस्ति.
विभूतिः विभूतये
तत्र विकल्पद्वयमस्ति, रूपद्वयमस्ति, विभूतये अथवा विभूत्यै.
विभूत्यै विभूत्यै विभूभ्यां विभूभ्यां
न न विभूतिभ्यां
विभूतिभ्यां
विभूतिभ्यः. समीचीनं महोदय. अस्तु ललिता भगिनी अग्रे. तत्र मूर्तिः अपि धेनुः.
मूर्ति मूर्तये मूर्तिभ्यां मूर्ति मूर्तिभ्यः
धेनुः
धेनुः धेनवे और् धेन्वै धेनुभ्यां धेनुभ्यः
धेनुभ्यः. समीचीनं भगिनि. लक्ष्मी भगिनी अग्रे. रज्जुः अपि वधूः इति
रज्वै रज्जुभ्यां रज्जुभ्यः वधु वद्वै वधुभ्यां वधुभ्यः.
तत्र चमु पदवत् एव अस्ति, अतः तत्र केवलं दीर्घ उकारः तत्र भवति. तत्र रज्जुः मध्ये ह्रस्व उकारः, अत्र दीर्घ उकारः, तावदेव. एकवचने वद्वै इति वद्वै चं वै वद्वै इति वधूभ्यः. समीचीनं भगिनि. उषा भगिनी अग्रे. तत्र स्वसा अस्तु, तत्र केवलं त्रयमेव अस्ति, अतः तत्र स्वसा दधी वस्तु त्रयमपि करोतु भगिनि. उषा भगिनी.
आम् आं महोदय.
तत्र स्वस्र इति अस्ति, ऋकारान्तपदम् अस्ति भगिनि. तत्र यथा मया उक्तं तत्र किं प्रायशः तत्र पेज् 13 मध्ये तत्र उत्तरं लभ्यते. माता तदनन्तरं स्वसा इति अस्ति, ऋकारान्तस्त्रीलिङ्गशब्दः. प्रातिपदिकं स्वसृ अस्ति भगिनि.
अपि च
दधि अपि वस्तु
वस्तु
दधि अपि वस्तु
दधि दधिने नकार अस्ति, नकार नास्ति तत्र.
तत्र भारी अपि तत्र किम् अस्ति, भारी अस्ति ईकारन्त नपुंसकलिङ्गपदः पदम्
वारिणे नत्वम् अस्ति तत्र महोदय.
किन्तु दधि दधि मध्ये नत्वं नास्ति, सत्यं नास्ति नास्ति.
दधिने दधिभ्यां दधिभ्यः.
समीचीनं भगिनि. इदानीं तत्र मधु शब्दः अस्ति उकारान्त नपुंसकलिङ्गपदम्, अतः वस्तु अपि तादृशमेव अस्ति, अतः
वस्तुने वस्तुभ्यां वस्तुभ्यः
इति अस्ति. समीचीनं. अतः तत्र अनेकपदानां चतुर्थीविभक्तिरूपाणि इदानीं जानीमः. इदानीं तत्र किं तत्र प्रायशः एतद् अभ्यासः
क्षम्यतां वदतु भगिनि, भवती पृच्छतु.
स्वसा इति पदं तत्र माता इति पदस्य चतुर्थी किमस्ति सत्यं भगिनि, स्वस्य तत्र प्रातिपदिकम् अस्ति स्वसृ इति ऋकारान्तपदम् अस्ति भगिनि. अतः स्वस्रे. शुभा भगिनी इदानीं प्रश्नः.
दधि शब्दस्य चतुर्थी दध्ने इति दत्तं महोदय, अत्र दधिने न.
ओ सत्यं सत्यं भगिनि, सत्यं सत्यं. तत् विशेषपदमेव अस्ति. सत्यं भगिनि, सत्यं. धन्यवादः, धन्यवादः भगिनि. धन्यवादः भगिनि, शुभा भगिनि धन्यवादः, सत्यं तत्र
तत्र
अत्र पुटे अस्ति, कोष्टके अस्ति, दध्ने इति दत्तम् अस्ति.
सत्यं 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 भगिनि, तत्र न समीचीनमेव अस्ति तत्. किन्तु तत्र वारी शब्दः अपि तत्र दधि शब्दः, तत्र अहं मम मनसि चिन्तनम् आसीत् समानम् इति, किन्तु समानं नास्ति. अत्र यथा भवती उक्तवती, कोष्टके एव दत्तम् अस्ति किन्तु न. हा अस्तु, धन्यवादः भगिनि. अपि तदनन्तरं किं, तत्र प्रायशः एकः एव अभ्यासः अस्ति, तं कृत्वा तदनन्तरं तत्र करपत्रं तत्र गच्छामः. अस्तु, इदानीं तत्र सः पठन् आसीत् इदानीं. हा उषा भगिनि, इदानीं तत्र पूर्णेन्दु महोदय अग्रिम अभ्यासः तम् आरम्भं करोति वा? तृतीय अभ्यासः, सत्यं महोदय.
आवरणे विद्यमानस्य शब्दस्य चतुर्थविभक्तिरूपेण रिक्तस्थानानि पूरयत. उदाहरण मातृ पुत्राभ्यां, तत्र आवरणे पुत्रौ अस्ति, खाद्यं ददाति. पुत्रौ इत्युक्ते एकवचने प्रथमाविभक्ति, द्विवचने पुत्रौ अस्ति, तस्य चतुर्थविभक्ति द्विवचने पुत्राभ्याम्.
अपि माद्री इति जानीमः, माद्री इति तस्याः तु पुत्रद्वयम् आसीत् इति.
आम् आम् महोदय. इदानीं आवरणे प्रथमाविभक्ति द्विवचनरूपं दत्तमस्ति, रिक्तस्थाने तु चतुर्थीविभक्ति द्विवचनं पूरणीयम् इति.
हा सत्यं महोदय, सत्यं.
तत्र भट्टः अश्वौ जलं दत्तवान्. अश्वौ अकारान्त, अश्वाभ्यां. अतः अश्वाभ्यां जलं दत्तवान्.
समीचीनं महोदय, तावदेव. हा इदानीं शोभा भगिनी अग्रे.
मित्रम् इति मित्रे नपुंसकलिङ्गपदं, सः अतः मित्रभ्यां मित्रभ्यामेव
मित्रभ्यामेव पुस्तकं ददाति. हा तत्र सर्वत्र अत्र प्रायशः द्विवचने एव अस्ति इति मन्ये, पश्यामः. गीताञ्जलि भगिनि अग्रे.
महोदय तत्र
मित्राभ्यां, सत्यं धन्यवादः.
मित्राभ्यां उक्तवती तत् न,
सत्यं सत्यं, मित्राभ्यां दीर्घ आकारः, सत्यं धन्यवादः. अस्तु गीताञ्जलि भगिनी अग्रे.
अनुजा बन्धु मधुरं दत्तवती, बन्धु इति दीर्घ ऊकारान्त, बन्धु इति
वचनं किं तत्र?
वचनं तु द्विवचनं महोदय, बन्धु बन् दीर्घ ऊकारान्त पुंलिङ्ग् अस्ति चेत् महोदय, दीर्घ ऊकारान्त इत्युक्ते
गुरुः शब्दः, गुरुशब्दः किं भवति, गुरुशब्दस्य प्रथमविभक्तिरूपं किम् अस्ति?
गुरुः एव प्रथमविभक्ति, गुरुः
एकवचने, द्विवचने
गुरु
किन्तु बन्धुः, बन्धुः बन्धु बान्धवः.
अस्तु अस्तु महोदय, बन्धु 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 अनुजा बन्धुभ्यां मधुरं दत्तवती.
हा समीचीनं भगिनि, तावदेव. हा शुभदा भगिनी अग्रे.
राजा गुरु इति द्विवचने वा?
सत्यं भगिनि, गुरुः गुरु गुरवः.
राजा गुरुभ्यां उपनयनानि ददाति
उपायनानि उपायनानि
उपायनानि ऐ एम सॉरी उपायनानि ददाति
हा उपायनं गिफ्ट उपायनानि गिफ्ट्स भवति वा अस्तु वेदा भगिनी अग्रे
अहं पितामहः पितामहः पौत्रौ गीतां ददाति पौत्र पौत्रः पौत्रौ द्विवचनं चतुर्थी विभक्तिरूपेण पौत्राभ्यां
पौत्राभ्यां पुत्राभ्यां पौत्राभ्यां
पितामहः पौत्राभ्यां गीतां
ददाति समीचीनं भगिनि वंशी सुधा भगिनी अग्रे
आं महोदय आं महोदय भक्तः षष्ठम् अहं भ्रातारौ वस्त्राणि क्षम्यतां भ्रातरौ तत्र ऋकारान्तपदमस्ति भ्राता भ्रातारौ भ्रातारः तत्र द्विवचने अस्ति भ्रातारौ अतः भ्रातृभ्याम् इति भवति अहं भ्रातृभ्यां वस्त्राणि यच्छामि
समीचीनं भगिनि अग्रे शुभा भगिनि
भक्तः मूर्तिभ्यां पुष्पाणि समर्पयति
हा मूर्तिः मूर्ति मूर्तयः इति प्रायशः समीचीनं भगिनि द्विवचने समीचीनं नरेश महोदय अग्रे
भवान् धेनुनानि दत्तवान् धेनु द्वितीयवचनं धेनुभ्यां भवान् धेनुभ्यां दत्तवान्
समीचीनं महोदय रघुवीर अनन्त महोदय कृष्णः
महोदय अष्टमा एव महोदय
न न नवमं नवमं महोदय कृष्णः इति
कृष्णः मातृभ्यां वस्त्राणि दत्तवान्
हा समीचीनं महोदय अस्तु इदानीं तत्र ललिता भगिनी
पौत्र पिता पुत्र्यो द्विवचन शब्द पुत्रः पुत्रः नो नो पुत्र्यौ पुत्री पुत्र्यौ पुत्र्यः सो इट् इस्
ऋकारान्तपदं स्त्रीलिङ्गं
पुत्री
नद्यै नदीभ्यां नदीभ्यः
पिता पुत्रीभ्यां शाटिकां दत्तवान्
समीचीनं भगिनि अस्तु अतः तत्र एतत् अभ्यासम् एतम् अभ्यासं कृत्वा तत्र यथा पूर्णेन महोदय उक्तवान् तत्र श्लोकरूपेण तत्र एकं लिङ्क् आसीत् तत्र ईमेल् मध्ये तदपि एकवारं पश्यामः तत्र चतुर्थीविभक्तेः रूपाणि कुत्र भवन्ति इति तत्र भवन्तः सर्वे प्राप्तवन्तः वा तत्र करपत्रं तत्र नमस्ते इति अस्ति तत्र नमस्ते इति पदस्य रूपं किम्
नमः अस्ति
नमः ते ते
ते इति चतुर्थी महोदय
ते कस्य पदस्य
चतुर्थी
तुभ्यं ते
हा तुभ्यं तुभ्यं
तस्मै
इट् इस् जस्ट् लैक् तस्मै इट् इस् लैक् तस्मै तु तद् शब्दस्य अस्ति एतदस्ति
तुभ्यं सः शब्दः
तुभ्यं
न न नमस्ते नमस्ते इति अस्ति तत्र नमः ते ते इति कीदृशपदं चतुर्थीविभक्तिरूपमेव
बहुवचन
न न नमः ते सः तौ ते इति न
पदस्य महोदय
हा त्वं पदस्य त्वं पदस्य त्वं युवां यूयम् युष्मान्
युष्मद् महोदय
युष्मत् पदस्य प्रातिपदिकं युष्मत् समीचीनं महोदय युष्मत् पदस्य तुभ्यम् अथवा ते इति अस्ति अपि युवाभ्याम् अथवा वाम् अपि युष्मभ्यम् अथवा वः इति अतः तत्र नमः ते इति नमस्तुभ्यम् इति नमस्तुभ्यं नमस्तुभ्यं यत् भवति तदेव तस्य रूपमेव अन्यत् रूपमस्ति ते इति अतः नमस्ते तत्र चतुर्थी विभक्ति अन्तर्भूतः अस्ति तत्र अस्तु अत्र पश्यामः तत्र कुत्र कुत्र चतुर्थी विभक्ति अस्ति तत्र प्रातिपदिकं कीदृशपदम् इति वक्तुं शक्नुमः इति प्रणवार्थाय
श्लोकं कुत्र अस्ति ईमेल् मध्ये
ईमेल् मध्ये भगिनि तत्र वि विल् यूस् दिस् इति किमपि अहं लिखितवान् तत्र एकनिमिष तत्र ईमेल् पश्यामि तत्र क्षम्यतां फस्ट् लैन् एव हैलैटेड् अस्ति प्रणवार्ताय इति तत्र प्रणवार्ताय कीदृशपदं
रामः शब्दः प्रणवार्तः
प्रणवार्तः प्रणवार्तः प्रणवार्ताय अपि शुद्धज्ञानैकमूर्तये तत्र मूर्तये
मूर्तिः
निर्मलाय प्रशान्तः प्रणवार्तः शुद्धज्ञानैकमूर्तिः निर्मलः प्रशान्तः दक्षिणामूर्तिः तम् अथवा तस्मै नमः तस्मै नमः इति अतः तत् एतत् सर्वं प्रसिद्धः श्लोकः एव अत्र सर्वं अग्रे वदतु महोदय पूर्णेन्दु महोदय
दक्षिणामूर्ति इत्युक्ते दक्षिण अमूर्ति इति वा सन्धि भूत्वा तत्र
दक्षिण सः दक्षिणं दिशि पश्यति महोदय तत्र सः दक्षिण अभिमुखम् अस्ति तत्र दक्षिणपदस्य तत्र बहवः अर्थः दीयते तत्र किन्तु तत्र दक्षिण इति तद् सः दातुम् इच्छति अपि तत्र दक्षिणदिशि सः पश्यति इति शिवस्य रूपं खलु एतद्
तत्र दक्षिणा योगः मूर्तिः भवति
मूर्तिः एव दक्षिण अपि मूर्तिः अमूर्तिः न अमूर्तिः न महोदय
दक्षिणशब्दस्य प्रातिपदिकस्य किं सप्तमे एकवचनप्रयोगः अस्ति महोदय
तत्र द्रष्टव्यमस्ति महोदय तत्र कीदृश निर्माणम् अत्र न जानामि किन्तु दृष्ट्वा वदामि महोदय दक्षिणामूर्तिः इति पदस्य निर्माणं कर्तुम् इति दृष्ट्वा वदामि महोदय सो अग्रे तत्र अग्रिमश्लोकः अपि प्रसिद्धः तत्र कायेन वाचा इति तत्र कायेन इति पत्रिका तृतीया वाचा इति
तृतीया
किन्तु एतत् गीतासोपाने प्रथमभागे न दत्तं तत् वाचा इति हलन्तपदम् अस्ति मनसेन्द्रियैर्वा मनसेन्द्रियैः वा अपि बुद्ध्यात्मना तत्र आत्मना बुद्ध्या आत्मना वा प्रकृतिस्वभावात् तत्रापि तत्र चतुर्थी नास्ति खलु तत्र पञ्चमी करोमि यद्यत् यद्यत् सकलं सकलं परस्मै परस्मै तत्तु चतुर्थी नारायण तत्र प्रायशः मुद्रणदोषः अस्ति नारायणायेति तत्र मुद्रणदोषः अस्ति क्षम्यतां तत्र नारायणाय इति समर्पयामि नारायणायेति समर्पयामि इति अस्ति तत्र नारायणाय इति तत्रापि चतुर्थी अग्रे तत्र एतदपि एषः अपि प्रसिद्धश्लोकः कोऽपि जानाति वा हा अर्धनारीश्वरश्लोकस्य प्रथम हा प्रथम हा समीचीनं भगिनी तत्र नमः शिवायै च नमः शिवाय इति तत्र शिवायै शिव इति पदस्य चतुर्थी शिवाय शिवपदस्य चतुर्थी तत्र चतुर्थीरूपस्य अभ्यासः करणीयं चेत् अर्धनारीश्वरश्लोकं बहुवारं पठतु तत्र चतुर्थीविभक्तेः अभ्यासः भवति हा तदनन्तरं तत्र तत्र चाम्पेय चाम्पेय गौरार्धशरीरकायः अत्र कायै कर्पूर गौरार्धशरीरकाय समीचीनं भगिनि हा अस्तु अग्रे तत्र तत्र या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता तत्र या देवी यासा इति तत्र या देवी सर्वभूतेषु भूतेषु इति रूपं
सप्तमी
बहुवचन बहुवचन बुद्धिरूपेण संस्थिता इति अस्ति संस्थिता अपि देवी विशेषणं संस्थिता देवी संस्थिता अतः स्त्रीलिङ्गे अस्ति संस्थिता नमस्तस्यै तत्र नमः तस्यै तस्यै देव्यै तस्यै देव्यै नमः इति नमो नमः नमः तस्यै नमः तस्यै नमस्तस्यै नमो नमः अपि तत्र चतुर्थीविभक्तिरूपं नमः इति पद यत्र भवति तत्र चतुर्थी एव भवति अतः तत्र गणेशाय नमः इति अतः यत्र तत्र अष्टोत्तरशतनामावली वा कुत्रापि तत्र सर्वं चतुर्थीविभक्तिरूपमेव दृश्यते इति तावदेव अस्तु तर्हि तत्र
महोदय यदि ललिता भगिनी जानाति एकम् एकवारम् अहं श्रोतुम् इच्छति भगिन्याः
इच्छति वा भगिनी अस्तु ललिता भगिनी वक्तुमिच्छति वा
वक्तुमिच्छति
अस्तु भगिनि वदतु भगिनि
चाम्पेय गौरार्धशरीरकायै कर्पूर गौरार्धशरीरकाय दम्मिल्लकायै च जटाधरायै जटाधराय नमः शिवायै च नमः शिवाय कस्तूरिका कुङ्कुमचर्चितायै चित्तारजकुञ्जविचर्चिताय कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय इति नव श्लोकानि अस्ति जनक्वणत् कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय मन्दारमालाकलितालकायै कपालमालाङ्कितकन्दराय दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय अम्बोदरश्यामलकुन्तलायै जटाधराय निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय प्रपञ्चसृष्ट्यन्मुखलास्यकायै समस्तसंहारकताण्डवाय जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय प्रतीतरत्नोज्ज्वलकुण्डलायै सुरन्महापन्नगभूषणाय शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय एतत् पडे दष्टकमिष्टदं यो भक्त्या समान्यो भुवि दीर्घजीवी प्राप्नोति सौभाग्यमनन्तकालम् भूयात्सदा भूयात्तदा तस्य समस्तसिद्धिः अर्धनारी आदीश्वरस्तोत्रं सम्पूर्णम्.
धन्यवादः भगिनि, बहु समीचीनम्. सर्वं चतुर्थी एव, अपि पुल्लिङ्गे स्त्रीलिङ्गे अस्ति, अतः अतः तत्र बहु समीचीनम् अस्ति. धन्यवादः भगिनि.
एतत् स्तोत्रं पठितवती, कारणं मम कालनी मध्ये पण्डितः स्कैप् मध्ये पाठितवान्.
ओ अस्तु भगिनि, अस्तु.
अहं सर्वे विंशतित्रिंशत् महिलामानवः
महिलाः पाठितवन्तः. अस्तु,
पाठितवन्तः.
समीचीनं भगिनि, धन्यवादः. वयमपि सर्वे श्रुतवन्तः. धन्यवादः भगिनि, बहु समीचीनं.
धन्यवादः, धन्यवादः.
अस्तु तर्हि तत्र वदतु महोदय. पूर्णेन महोदय,
सर्वेषां कृते भगिनि यदि तस्य लिखितं रूपं प्रेषयितुं शक्यते.
एतत् शङ्करग्रन्थावली स्तोत्राणि
शङ्कराचार्येण विरचितं स्तोत्रम् अस्ति, प्रसिद्ध श्लोकः अस्ति महोदय.
स्तोत्राणि लघु प्रकरणानि च.
लभ्यते वा?
हा, आन्लैन् मध्ये लभ्यते, किन्तु यदि प्रेषयति. अस्तु,
महोदय प्रेषयतु.
अहं प्रेषयामि तत्र ध्वनिमुद्रणेन सह प्रेषयामि. अस्तु तर्हि समीचीनम् अस्ति. रघुवीरानन्दमहोदय अन्ते तत्र शान्ति मन्त्रं समर्पयामि.
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम् महोदय.